अथ श्री अष्टलक्ष्मी स्तोत्रम् द्विभुजांच द्विनेत्रांच साभयां वरदान्वितां पुष्पमालाधरां देवीं अम्बुजासनसंस्थितां पुष्पतोरणसंयुक्तां प्रभामण्डलमण्डितां सर्वलक्षणसंयुक्तां सर्वाभरणभूषितां पीताम्बरधरां देवीं मकुटे चारुबन्धनां स्तनोन्नतिसमायुक्तां पार्श्वयोर्दीपशक्तिकां सौन्दर्यनिलयां शक्तिम् आदिलक्ष्मीमहं भजे सुमनसवन्दितसुन्दरि माधवि चन्द्रसहोदरि हेममये मुनिगणमण्डितमोक्षप्रदायिनि मञ्जुलभाषिनि वेदनुते पङ्कजवासिनि देवसुपूजित सद्गुणवर्षिणि शान्तियुते जय जय हे मधुसूदन कामिनि आदिलक्ष्मि सदा पालय माम् जटामकुटसंयुक्ताम् स्थितासनसमन्विताम् अभयम् कटकम् चैव पूर्णकुम्भम् भुजद्वये कञ्चुकम् छन्दवीरम् च मौलिकम् चापि धारिणीम् दीपचामरनारीभिः सेविताम् पार्श्वयोर्द्वयोः बाले सेनानि सङ्काशे करुणापूरिताननाम् महाराज्ञीम् च सन्तानलक्ष्मीम् इष्टार्थसिद्धये ऐखगवाहिनि मोहिनि चक्रिणि रागविवर्धिनि ज्ञानमये गुणगणवारिधि लोकहितैषिणि स्वरसप्तभूषितगाननुते सकलसुरासुरदेवमुनीश्वरमानववन्दित पादयुते जय जय हे मधुसूदन कामिनि सन्तानलक्ष्मि सदा पालय माम् चतुर्भुजाम् द्विनेत्राम् च वराभयकरान्विताम् अब्जद्वयकराम् भोजाम् अम्बुजासनसंस्थिताम् ससुवर्णघटोभाभ्याम् प्लाव्यमाना महाश्रियम् सर्वाभरणशोभाढ्याम् शुभ्रवस्त्रोत्तरीयकाम् चामरग्रहनारीभिः सेविताम् पार्श्वयोर्द्वयोः आपादलम्बिवसनाम् करण्डमकुटाम् भजे जय जय दुर्गतिनाशिनि कामिनि सर्वफलप्रदशास्त्रमये रथगजतुरगपदादिसमावृतपरिजनमण्डितलोकनुते हरिहर ब्रह्मसुपूजितसेविततापनिवारणि पादयुते जय जय हे मधुसूदन कामिनि गजलक्ष्मीरूपिणि पालय माम् किरीटमकुटोपेताम् स्वर्णवर्णसमन्विताम् सर्वाभरणसंयुक्ताम् सुखासनसमन्विताम् परिपूर्णम् च कुम्भम् च दक्षिणेन करेण तु चक्रम् बाणम् च ताम्बूलम् तथा वामकरेण तु शङ्खम् पद्मम् च चापम् च कुण्डिकामपि धारिणीम् सत्कञ्चुकस्थनीम् ध्यायेद्धनलक्ष्मीम मनोहरा धिमि धिमि धिन्धिमि 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 दुन्दुभिनादसु पूर्णमये घुम घुम घुम् घुम घुम् घुम घुम् घुम शङ्कनिनादसु वाद्यनुते वेदपुराणविलाससु पूजित वैदिकमार्गप्रदर्शयुते जय जय हे मधुसूदन कामिनि धनलक्ष्मीरूपिणि पालय माम् वरदाभयसंयुक्ताम् किरीटमकुटोज्ज्वलाम् अम्बुजम् चेक्षुचालीम् च कदलीफलद्रोणिकाम् पङ्कजम् दक्षवामेतु रधानाम् शुक्लरूपिणीम् कृपामूर्तिम् जटाजूडाम् सुखासनसमन्विताम् सर्वालङ्कारसंयुक्ताम् सर्वाभरणभूषिताम् मदमत्ताम् मनोहारीम् रूपाम् धान्यश्रियम् भजे अयिकलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये क्षीरसमुद्भवमङ्गलरूपिणि मन्द्रनिवासिनि मन्द्रनुते मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रितपादयुते जय जय हे मधुसूदनकामिनि धान्यलक्ष्मि सदा पालय मा अष्टबाहुयुताम् देवीम् सिंहासनवरस्थिताम् सुखासनाम् सुकेशीम् च किरीटमकुटोज्ज्वलाम् श्यामाङ्गीम् कोमलाकाराम् सर्वाभरणभूषिताम् खड्गम् पाशम् तथा चक्रम् अभयम् सव्यहस्तके खेटकञ्चाङ्कुशम् शङ्खम् वरदम् वामहस्तके राजरूपधराम् शक्तिम् प्रभा सौन्दर्यशोभिताम् हंसारूढाम् स्मरेद्देवीम् विजयाम् विजयाप्तये जय कमलासनि सद्गतिदायिनि ज्ञानविकासिनि गानमये अनुदिनमर्चित कुङ्गुमधूसरभूषितवासित वाद्यनुते कनकधरास्तुति वैभव वन्दित शङ्कर देशिक मान्यपदे जय जय हे मधुसूदन कामिनि विजयलक्ष्मि सदा पालय मा चतुर्भुजाम् महालक्ष्मीम् गजयुग्म सुपूजिताम् पद्मपत्राभनयनाम् वराभयकरोज्ज्वलाम् ऊर्ध्वद्वयकरे चाब्जम् दधतीम् शुक्लवस्त्रकाम् पद्मासने सुखासीनाम् भजे हम् सर्वमङ्गलाम् प्रणत सुरेश्वरि भारति भार्गविशोक विनाशिनि रत्नमये मणिमय भूषित कर्ण विभूषण शान्ति समावृत हास्यमुखे नवनिधिदायिनि कलिमलहारिणि कामित फलप्रद हस्तयुते जय जय हे मधुसूदन कामिनि विद्यालक्ष्मि सदा पालय मा अष्टबाहुयुताम् लक्ष्मीम् सिंहासनवरस्थिताम् तप्तकाञ्चन सङ्काशाम् किरीटमकुटोज्ज्वलाम् स्वर्णकञ्चुक संयुक्ताम् छन्न वीरधराम् तथा अभयम् वरदम् चैव भुजयोः सव्यवामयोः चक्रम् शूलम् च बाणम् च शङ्खम् चापम् कपालकम् दधतीम् वीरलक्ष्मीम् च नवतालात्मिकाम् भजे जय वरवर्णिनि वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रमये सुरगणपूजित शीघ्रफलप्रद ज्ञानविकासिनि शास्त्रनुते भवभयहारिणि पापविमोचनि साधुजनाश्रित पादयुते जय जय हे मधुसूदन कामिनि धैर्यलक्ष्मि सदा पालय मा